आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका रिंकू जोशी। आदौ मुख्य वार्ताः। त्रयोदश राज्येषु केन्द्रशासित प्रदेशेषु भविष्यमाणस्य द्वितीय चरणस्य लोकसभा निर्वाचने दशाधिक द्विशतोत्तरैक सहस्रं प्रत्याशिनः निर्वाचन समारंगणे सन्ति। निर्वाचनायोगेन स्वतंत्र निष्पक्ष लोकसभा निर्वाचनाय केन्द्रीय गृहमन्त्रालयः पश्चिम बंगाले केन्द्रीय सशस्त्र अर्धसैन्यबलस्य शताधिकाः अन्य उद्यमान् नियोजयितुं निर्देशः दत्तः। कश्मीरी पण्डितैः कश्मीरस्य नववर्षस्य प्रथमदिवसः नवदेह उत्सवः अद्य आमान्यते। अंशदान विपणस्य संवेदी सूचकांकः प्रथमवारं 75,000 यावत् सम्प्राप्तः। निफ्टी चेति नवीन कीर्तिमत शिखरं प्राप्तम्। अपि च आईपीएल क्रिकेट प्रतिस्पर्धायाम् अद्य चण्डीगढ़स्य महाराज यादविन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे पंजाब किंग्स सनराइजर्स हैदराबाद दलयोर्मध्ये स्पर्धा भविष्यति। त्रयोदश दश राज्येषु केन्द्रशासित प्रदेशेषु भविष्यमाणस्य द्वितीय चरणस्य लोकसभा निर्वाचने दशाधिक द्विशतोत्तर एकसहस्रं प्रत्याशिनः निर्वाचन समारंगणे सन्ति। निर्वाचनायोगेन संसूचितं यत् अष्टाशीतिः आसनेभ्यः आहत्य त्रयस्त्रिंशदधिक षडोत्तर द्विसहस्रं नामांकानि भरितानि सन्ति, येषु अष्टाविंशत्यधिक चतुःशतोत्तर एकसहस्रं वैधित्वेन प्राप्तवानि। ह्यः नामांकनं प्रत्यवर्तनस्य अन्तिम दिनम् आसीत्। द्वितीय चरणाय मतदानं षड्विंशे दिनांके भविता। एतस्मिन् द्वितीय चरणे केरल राज्यात् विंशतिः लोकसभासनेभ्यः सर्वाधिकं 500, कर्णाटक राज्यात् 14 लोकसभासनेभ्यः 91,400 नामांकन पत्राणि पूरितानि। त्रिपुरायाः एकस्मात् लोकसभासनात् 14 नामांकन पत्राणि प्राप्तानि। महाराष्ट्रस्य नांदेड लोकसभासनात् सर्वाधिकं 92 नामांकानि परिपूरितानि। भाजपेति दलस्य वरिष्ठ नेता प्रधानमन्त्री च नरेन्द्र मोदी उक्तवान् यत् भारतेन प्रदर्शितं वर्तते यत् तस्य कृते किमपि असम्भव कार्यं नास्ति। प्रधानमन्त्री अद्य उत्तरप्रदेशस्य पीलीभीत जनपदे एकां नैर्वाचनिक जनसभां सम्बोधयन् आसीत्। प्रधानमन्त्री अत्रावसरे सम्भाषितवान् यत् कांग्रेस प्रशासनेन विश्वेन साहाय्यं याचयति, परञ्च कोविड महामार्याः अवधौ भारतेन सम्पूर्ण विश्वाय औषधयः सूच्यौषधयः च सम्प्रेषिताः। तेन निगदितं यत् यदा देशः सबलत्वेन जातः तदा सम्पूर्णः विश्वं तं देशं प्रति ध्यानेन शृण्वन्ति। प्रधानमन्त्री अकथयत् यत् युवभ्यः वृत्त्यवसराः सृजन्ति, कृषकेभ्यः प्रशासनस्य प्रयासान् उल्लेखनं कृषि उत्पादेन पीलीभीतस्य महत्वमपि प्रकाशितवान्। प्रतिपक्षदलानि विरुध्य असौ अवदत् यत् इंडी इत्याख्येन संयुक्तदलेन राममन्दिरनिर्माणस्य विरोधः कृतः, प्राणप्रतिष्ठायाश्च निमन्त्रणमपि अवहेलितम्। अवधेयं वर्तते यत् उत्तरप्रदेशस्य अष्ट संसदीय आसनेषु अस्य मासस्य 19 दिनांके लोकसभा निर्वाचन प्रथमचरणे मतदानं भविष्यति। एते अष्ट संसदीय क्षेत्राः सन्ति सहारनपुर, कैराना, मुजफ्फरनगर, बिजनौर, नगीना, मुदादाबाद, रामपुर, पीलीभीताः। निर्वाचनायोगेन स्वतंत्रं अथ निष्पक्षं च लोकसभा निर्वाचनाय केन्द्रीय गृहमन्त्रालयं पश्चिम बंगाले केन्द्रीय सशस्त्र अर्धसैन्यबलस्य शताधिकाः अन्याः उद्यमाः नियोजयितुं निर्देशः दत्तः। सूत्रानुसारेण आयोगस्य निर्देशेन गृहमन्त्रालयेन केन्द्रीय रिजर्व आरक्षिदलस्य 55 उद्यमाः, सुरक्षाबलस्य 45 उद्यमाः च नियोजिताः सन्ति। जम्मूकश्मीरे अद्य कश्मीरी पण्डितैः नवरेह उत्सवः आमान्यते। नवरेहः जम्मूकश्मीरे कश्मीरी पण्डितानां कश्मीरी नववर्षस्य प्रथमदिवसस्य उत्सवः अस्ति। कश्मीरी पण्डिताः नवरेह उत्सवं स्वस्य देवी शारिका देव्यै समर्पयन्ति। भक्ताः विश्वे समग्रस्य मानवजातेः कल्याणार्थं देवीं प्रार्थयन्ति। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। नवदिल्ली नगरे विदेशमंत्री डॉ एस जयशंकर बेल्जियम देशस्य विदेश मंत्रालयस्य महासचिव थियोडोरा जेंजेटिट्स इत्यनेन सह मिलितवान। एकस्मिन् अन्तर्जालीय संदेशे डॉ जयशंकर अवदत् यत् भारत बेल्जियम यूरोपीय संघानां च आर्थिक राजनैतिक सहकार्यस्य सुदृढीकरणस्य विषये चर्चां कृतवन्तः। डॉ जयशंकर अर्धचालकस्य हरित विकासस्य च विषये विचाराणाम् आदानं प्रदानं चापि कृतवन्तः। दिल्ल्याः राउज एवेन्यू न्यायालयेन दिल्ली उत्पाद शुल्क नीति प्रवञ्चना सम्बन्धे धनशोधन प्रकरणे भारत राष्ट्र समित्याः नेत्रयाः के कवितायाः न्यायायिक कारावासावधिः अस्मिन् मासस्य 23 दिनांक पर्यन्तं समेधिताः। ह्यः दिल्ली न्यायालयेन विमोचनार्थं तस्य याचना निरस्तीकृता। महाराष्ट्रे महाविकास आघाड़ी दलेन आसन आवंटनस्य घोषणा कृता अस्ति। मुंबई नगरस्य पत्रकार सम्मेलनं संबोधयन् एनसीपी प्रमुखः शरद पवारः शिवसेना नेता उद्धव ठाकरे राज्य कांग्रेस दलस्य अध्यक्षः नाना पोटोले च राज्यस्य 48 संसदीय आसनानां आवंटनस्य उद्घोषणां कृतवन्तः। शिवसेना 21 लोकसभा आसनेषु, कांग्रेस पक्षस्य 17 आसनेषु, एनसीपी महाराष्ट्रे 10 आसनेषु च स्पर्धयिष्यन्ति। अंशदान विपणस्य संवेदी सूचकांकः अद्य प्रातः प्रथमवारं 75,000 यावत् सम्प्राप्तः। निफ्टी चेति नवीन कीर्तिमतं शिखरं प्राप्तम्। प्रारंभिक व्यवसाये विपणस्य तीव्रगत्याम् आईईटी इत्येतस्य अंशदानेषु क्रयणस्य योगदानानि अधिकम् अभवत्। आईपीएल क्रिकेट प्रतिस्पर्धायाम् अद्य चण्डीगढ़स्य महाराजा यादविन्द्र सिंह अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे पंजाब किंग्स सनराइजर्स हैदराबाद दलयोर्मध्ये स्पर्धा भविष्यति। अस्याः प्रसारणं 7:30 सायंकाले भविष्यति। ह्यः चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे चेन्नई सुपर किंग्स दलेन कोलकाता नाइट राइडर्स दलं 7 पराजितम्। चैत्र शुक्लादि उगादि गुड़ी पड़वा चेती चंड नवरेह साजीबू चेईराओबा पर्वाणां शुभावसरे राष्ट्रपति द्रौपदी मुर्मू उपराष्ट्रपति जगदीप धनखड़ प्रधानमंत्री नरेन्द्र मोदी च जनेभ्यः शुभकामनाः अयच्छन्। स्वीय संदेशे राष्ट्रपतिः अवोचत् यत् एतानि पर्वाणि नवसंवत्सरस्य वासन्तिक स्वागताय विद्यन्ते। उपराष्ट्रपतिः शुभसन्देशं प्रयच्छन् अकथयत् यत् एतानि पर्वाणि विभिन्नेषु राज्येषु विविधानां ज्ञायन्ते, तथापि आनन्द पद्धति एका वास्ति। प्रधानमंत्री शुभावसरे प्रोक्तवान् यत् अयं नूतन संवत्सरः प्रत्येकं जनाय आनन्दं प्रसन्नं उच्च स्वास्थ्ययुतो भवेत्। अन्ते च मुख्यवार्ताः पुनरेकवारम्। 13 राज्येषु केन्द्रशासित प्रदेशेषु भविष्यमाणस्य द्वितीय चरणस्य लोकसभा निर्वाचने 10,200 प्रत्याशिनः निर्वाचनं संगतन्ति। अंशदान विपणस्य संवेदी सूचकांकः प्रथमवारं 75,000 यावत् सम्प्राप्तः। निफ्टी चेति नवीन कीर्तिमत् शिखरं प्राप्तम्। कश्मीरी पण्डितैः कश्मीरस्य नववर्षस्य प्रथमदिवसः नवरेह उत्सवः अद्य आमान्यते। अथ आईपीएल क्रिकेट प्रतिस्पर्धायाम् अद्य चण्डीगढ़स्य महाराजा यादविन्द्र सिंह अन्ताराष्ट्रिय क्रीडांगणे पंजाब किंग्स सनराइजर हैदराबाद दिल्ली